एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। अस्यैव वैशाखस्य त्रिंशे दिवसे सम्पत्स्यमानाय स्थानीय स्तराणाम् निर्वाचनाय विभिन्नेषु पदेषु लक्ष्यस्य 49,000 370 षट्शतस्य च जनानाम् मनोनयनम् पंजीभूतम् वर्तते। निर्वाचनायोगेन ह्य सार्वजनिक कृतानाम् तथ्याङ्कानाम् अनुसारेण एतत् संख्याकानाम् जनानाम् मनोनयनम् पंजीभूतमस्ति। अत्रान्तरे निर्वाचनायोगेन वैशाखस्य त्रिंशे दिवसे सम्पत्स्यमानस्य स्थानीय स्तराणाम् निर्वाचनस्य कृते मुद्रितस्य पत्रस्य ह्यो जनपदेषु प्रेषणम् प्रारब्धम् वर्तते। भक्तपुरस्थितात् जनक शिक्षा सामग्री केन्द्र लिमिटेड संस्थानस्य कार्यालयात् ह्य कर्णाली प्रदेशस्य 10 सुदूर पश्चिम प्रदेशस्य त्रयश्चेति आहत्य त्रयोदशसु जनपदेषु मतपत्रम् प्रेषितम् इति आयोगस्य सहसचिवः तुलसी बहादुर श्रेष्ठः अबोधयत्। ह्य एव डोल्पा जनपदस्य दुनै स्थाने, हुम्ला जनपदस्य सिमकोट स्थले च नेपाली सेनाया हेलिकप्टर यानेन निर्वाचन सामग्र्यः प्रेषिताः सन्ति। अद्य वैशाखस्य चतुर्दश दिवसे काष्ठमण्डपात् दीर्घदूरी युतेषु पूर्व पश्चिम दिशा नवसु जनपदेषु मतपत्रम् प्रेष्यते इति सहसचिवः श्रेष्ठः ज्ञापितवान्। एतस्य अनुसारम् मतपत्र परिवहन कार्यतालिकायाः अनुरूपम् अतःपरम् प्रतिदिनम् मतपत्र प्रेषणम् भवति। शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः चिकित्सा विज्ञानस्य शिक्षणस्य व्यवस्थितेः स्तरीकरणस्य च सम्बन्धे ह्य सम्बद्ध पक्षेण सह व्यमृशत। मन्त्री पौडेलः मन्त्रालय चिकित्सा शिक्षायोगस्य, त्रिभुवन विश्वविद्यालयस्य शिक्षण चिकित्सालयस्य, काष्ठमण्डप विश्वविद्यालयस्य, पूर्वाञ्चल विश्वविद्यालयस्य, नेपाल संस्कृत विश्वविद्यालयस्य पदाधिकारीभिः सह चिकित्सा विज्ञानस्य शिक्षणस्य नेपाले एव व्यवस्थितेः स्तरीकरणस्य च सम्बन्धे विमृष्टवान्। चिकित्सा शिक्षायाः अर्जनाय प्रतिवर्षम् 98,000 रूप्यकाणि देशाद् बहिः गच्छन्ति सन्तीति ज्ञापयन् मन्त्री पौडेलः देशे एतद् विषयस्य शिक्षणाय व्यवस्थायं विहितायं सत्यं शिक्षा प्राप्तये वैर्नियमानं वित्तमेतत् नेपाले एव स्थास्यतीति अतर्कयत्। विमर्शने सहभागिभिः पदाधिकारिभिः चिकित्सा क्षेत्रे वित्तस्य न्यूनतायाः कारणेन समस्या सृष्टेति तर्कयद्भिः वित्तम् वर्धयितुम् मन्त्री पौडेलः अनुरुद्धः आसीत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति मनमोहन अधिकारिणा विखण्डितम् वामान्दोलनम् रक्षितम् आसीत्। मनमोहन अधिकारिणः त्रयोविंशस्य स्मृति दिवसस्य अवसरे मनमोहन स्मृति प्रतिष्ठानेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे अध्यक्ष ओली अभाषत मनमोहन अधिकारिणा अनेकानि दुःख कष्टानि सोढ्वापि नेपालस्य वामान्दोलनम् रक्षितम् आसीत्। अध्यक्षः ओली प्रजातन्त्रस्य लोकतन्त्रस्य च रक्षायै स्वच्छम् प्रतिस्पर्धनम् आवश्यकम् अस्ति हेतोः एमाले दलम् उत्साहेन निर्वाचने स्पर्धमानम् वर्तते इत्यत आवेशे उत्तेजनायाञ्च न आगन्तुम् नेतृन् कार्यकर्तृञ्च निरदिशत। नेपाले अधुनावधि लक्षित जनसंख्याया प्रतिशतम् 10.83% जनैः कोरोना विषाणोः प्रतिरोधी पूर्णमात्रायाः टीकाकरणमाहितम् वर्तते। लक्षित जनसंख्याया द्वादश वर्षाधिक वयसमूहस्य प्रतिशतम् 10.95% जनैः कोरोना विषाणोः प्रतिरोधी एकमात्रात्मकम् प्रतिशतम् 10.83% जनैः पूर्णमात्रात्मकम् च टीकाकरणम् आहितमिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। गतदिने 80,637 जनाः कोरोना विषाणोः प्रतिरोधी टीकाकरणम् आहितवन्तः। ह्यः अतिरिक्तेषु 10 जनेषु कोरोना विषाणोः संक्रमणम् पुष्टीभूतम् वर्तते। ह्यः 18 जनाः कोरोना विषाणोः संक्रमणात् मुक्ताः सन्ति। इदानीम् आराष्ट्रम् 61,200 कोरोना विषाणोः सक्रिया संक्रान्त जनाः सन्तीति मन्त्रालयसौ ज्ञापयति। स्वास्थ्य जनसंख्या मन्त्रालयेन अत्युष्ण वायुतः स्वात्मानं त्रातुं सर्वे अनुरुद्धाः सन्ति। उष्णकालस्य वर्धनेन सहैव अत्युष्ण वायुः प्रवहमाणोस्तीति हेतोः मन्त्रालयेन सूचनां प्रकाश्य अत्युष्ण वायोः प्रभावात् स्वात्मानः रक्षणाय दिवा समये गृहात् बहिः न निष्क्रान्तुम् अनुरुद्धं वर्तते। बहिः निष्क्रमणीयम् एव अस्ति चेत् कृशवस्त्रेण शिरःच्छाद्य आतपत्रेण स्वात्मानं परिच्छाद्य एव वा निष्क्रान्तुम् फलानां रसान् पातुम् अधिकेषु स्वेदेषु पतितेषु सत्सु समये समये जीवनजलम् पातुम शैत्य जलेन स्नातुम कृषि कार्यम प्रातः सायं वा कर्तुम अधिक शर्करायुतम जलम अधिकम न पातुम चाय कफी सोडा प्रवृत्तिन पेय पदार्थान अधिकम न ग्रहितुञ्च मन्त्रालयेन सर्वे अनुरुद्धाः सन्ति। श्रमवृत्ति सामाजिक सुरक्षा मन्त्रिणा कृष्ण कुमार श्रेष्ठेन सह मलेसिया देशस्य कार्यवाहक राजदूत मोहम्मद फ्याजल ह्यो मेलवार्ताम् व्यददात। मन्त्रालय सम्पन्नायम् तस्याम् मेलवार्तायम् अनयोर्मध्ये द्विपक्षीय हितस्य सहकार्यस्य च विषययोः विमृष्टम् आसीत्। अत्रान्तरे श्रम मन्त्रिणः श्रेष्ठस्य नेतृत्वस्य समूह अद्य मलेसिया देशम् प्रयाति। मलेसिया देशस्य मानव संसाधन मन्त्रिणः सरवनन मुरुगन इत्यस्य निमन्त्रणाय मन्त्री श्रेष्ठ मलेसिया देशस्य चतुर्दिवसीय भ्रमणाय प्रस्थीयमानस्थिति मन्त्रालयो ज्ञापयति। भ्रमणस्य क्रमे मन्त्रिणः श्रेष्ठस्य मलेसिया देशस्य समकक्षिणा मुरुगन इत्यनेन सह मेलवार्तायाः मलेसिया देशे विद्यमानेन नेपाली समुदायेन सह विमर्शनस्य च कार्यक्रमो वर्तते। नेपाल पञ्चाङ्ग निर्णायक विकास समित्या अनुमतिं विना पञ्चाङ्गस्य भित्ति पञ्चाङ्गस्य च प्रकाशकेभ्यो जनेभ्य कार्यविधिम् निर्माय दण्डन प्रक्रिया अग्रे वर्धाप्यते। समितेः संघटनादेशस्य अनुसारेण अनुमतिम् विना प्रकाशितानि पञ्चाङ्गानि भित्ति पञ्चाङ्गानि च दण्डयितुम् कार्यविधिः निर्मीयमाणो वर्तते। कार्यविधेः प्रारूपस्य निर्माणस्य विषये संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयस्य सचिवेन महेश्वर न्यौपाने विधेयेन सहापि विमृष्टमस्तीति समितेः कार्यकारी निर्देशकः सूर्यप्रसाद ढुङ्गेलः अज्ञापयत्। समित्याः अनुमतिम् गृहीत्वा अधुनावधि चतुर्दश पञ्चाङ्गानि पञ्चनवत्यधिकाष्टशतम् भित्ति पञ्चाङ्गानि च प्रकाशितानि सन्ति। मन्त्रिपरिषदा सप्तसप्तत्यधिकद्विसहस्रतम वैक्रमाब्दस्य पौषमासे समितेः संघटनादेशस्य स्वीकृतेः अनन्तरम् पञ्चाङ्गस्य भित्ति पञ्चाङ्गस्य च प्रकाशनाय अनुमतेः स्वीकृतेर्व्यवस्था नेपाल राजपत्रे प्रकाशिता वर्तते। भक्तपुरस्य मध्यपुर ठिमी नगरपालिकायाः चतुर्थवडा क्षेत्रस्य दोबाटो स्थाने ट्रिपर यानस्य प्रहारेण स्कूटर यानस्य चालकः मृतः स्कूटर याने आरूढः अपरः जना गभीरेण आहतश्च वर्तेते। मध्यपुर ठिमी नगरपालिकायाः चतुर्थवडा क्षेत्रस्य चार्दो बाटो चतुष्पथे नयाँ ठिमी स्थानात् कोरियन चिकित्सालयम् प्रति गच्छता ट्रिपर यानेन गट्ठागर स्थानात् नयाँ ठिमी स्थानम् प्रति आगच्छत स्कूटर यानम् प्रहरितम् सद स्कूटर यान चालकः काभ्रे पलाञ्चोक जनपदस्य बेथानचोक ग्रामपालिकायाः द्वात्रिंशत् वर्षीयः ज्ञानेन्द्र मल्ल ठकुरी मृतः इति भक्तपुरस्थेन महानगरीय प्रहरी परिसरेण ज्ञापितम् वर्तते। स्कूटर याने आरूढः म्याग्दी जनपदस्य बेनी नगरपालिकायाः चतुर्थवडा क्षेत्रस्य त्रयस्त्रिंशद् वर्षीयस्य विमल श्रेष्ठस्य मध्यपुरे ठिमी चिकित्सालये उपचारः विद्यमानो वर्तते। अध्यागमन विभागेन शंकास्पदावस्थायाः द्वाविंशत्याम् चीनदेशीय नागरिकेषु अनुसन्धानम् विहितम् वर्तते। व्यापारिक प्रवेशाज्ञया नेपालम् आगत्य अन्येषाम् गतिविधीनाम् संचालनस्य आशंकायाम् एतेषु जनेषु अनुसन्धानम् प्रारब्धमिति अध्यागमनाधिकृतः मनोहर थापा अज्ञापयत। एकविंशतिर्जनानाम् व्यापारिक प्रवेशाज्ञा प्राप्ता एकस्य जनस्य प्रवेशाज्ञावधिः सम्पन्नश्चेति अधिकृतः थापा ज्ञापितवान्। इति समाचारः।